अथ अन्यस्मिन् दिने प्रभावती शुकं वप्रच्छ शुकः अपि आह याहि देवि विजानासि यदि जार सम अन्नु इता सज्जनी इव पुरा वक्तुम् भर्तुः अग्रे कचग्रहे प्रभावती आह किम् एतत् कीरः अब्रवीत् अस्ति चन्द्रपुरम् नाम नगरम् तत्र अभूत् वर्धकिः सूरपाल आख्यः श्रीमान् तस्य सज्जनी नाम भार्या अत्यन्तम् परपुरुषलम्पटा ताम् च तद्गृहस्थाम् देवकः नाम रमते इति लोकात् एतद् आकर्ण्य वर्धकिः कपटेन गृहात् निर्गत्य प्रातः सन्ध्यायाम् आच्छन्नः समागत्य तल्पस्य अधः भागे स्थितः सा च जारेण सह तत्र आरूढा पत्या केशेषु गृहीता कथम् मुच्यते उत्तरम् सा पत्या धृता सती द्वितीयपतिमुखम् आलोक्य प्र आह मया तव कथितम् यत् रथकारः मम पतिः गृहे न विद्यते सः च आगतः तव तदा एव औचित्यम् विधास्यति यदि अपि पूर्वम् पत्या त्वदीयम् द्रव्यम् अपहृतम् तथा अपि क्षन्तव्यम् रथकृति समागते तव गृहम् गमिष्यामि यूवयोः सङ्गतिम् वा करिष्ये न अत्र संशयः इति कथाम् श्रुत्वा प्रभावती सुत्ता